ॐ सद्गुरुभ्यो नमः शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् येषां संकीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् तानि शुक्रस्य नामानि कथयामि शुभानि च शुक्रः शुभग्रह श्रीमान् वर्षकृत् वर्षविघ्नकृत् तेजो निधिर् ज्ञानदाता योगी योगविदाम्बरः दैत्य सञ्जीवनो धीरो दैत्यनेत्रो अशनाकविः नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः अक्षमालाधर काव्यः तपोमूर्तिर्धनप्रदः चतुर्विंशतिनामानि अष्टोत्तरशतं यथा देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः य इदं पठति स्तोत्रं भार्गवस्य महात्मनः विषमस्तोऽपि भगवान् दुष्टस्यान्नात्र संशयः स्तोत्रं भृगोरिदमनन्दगुणप्रदं यो भक्त्या पठेच्च मनुजो नियतः शुचिः सन् प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान् राज्यं समस्तधनधान्ययुतं समृद्धिं श्रीशुक्रस्तोत्रं सम्पूर्णम्।